सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे, फलान्यपि परार्धाय वृक्षा सत्पुरुषा इव. इत्युक्ते वृक्षः सर्वदा अन्येषां कृते छायां ददति, अपरेषां कृते वृक्षाः फलानि ददति, परन्तु ते सर्वदा स्वयम् आतपे तिष्ठन्ति. अत्र आतपः इत्युक्ते सूर्यतापः. तत्र स्थित्वा अपि ते फलानि ददति. तथा एव सत्पुरुषाः अपि अपरेषां कृते कार्याणि कुर्वन्ति. केवलं लोककल्याणार्थं सत्पुरुषाः कार्याणि कुर्वन्ति. अस्मिन् कार्ये मम कोऽपि लाभः अस्ति वा इति ते न कदापि चिन्तयन्ति. तदर्थमेव अस्माकं ऋषयः अस्माकं कृते एव बहु किमपि संस्कृतवाङ्मयं दत्तवन्तः, परन्तु अस्माकं कार्यमस्ति संस्कृतवाङ्मयम् अस्माभिः पठनीयं. तदर्थं संस्कृतव्याकरणस्य आवश्यकता अस्ति. तदर्थमेव वयम् अस्यां भाषायां किञ्चित् अस्याः भाषायाः अवगमनार्थं वयं सर्वे अत्र मिलित्वा किञ्चित् प्रयत्नं कुर्मः. अपि च अस्माकं ऋषीं प्रति कृतज्ञतां दर्शयामः. उत्तमम्. अनन्तरं गते सप्ताहे वयं भूतकालरूपाणि पठितवन्तः, अपि च अस् धातोः वर्तमानकालरूपाणि भूतकालरूपाणि पठितवन्तः. अद्य इतोपि वयं नूतनान् विषयान् ज्ञास्यामः, परन्तु प्रथमतया किञ्चित् गृहपाठविषये चिन्तनं कृत्वा अनन्तरं अभ्यासपुस्तकं प्रति गच्छेम. उत्तमं. प्रथमतया श्रावयन्तु वाक्यानि, अथवा नो चेत् अत्र गृहपाठः किमासीत् इत्युक्ते कपोति कपोतयोः त्यागः. अत्र अत्र भूमा भगिनी भवती कृतवती वा अत्र रिक्तस्थानानि पूरयन्तु? प्रथमतया वयं रिक्तस्थानानि पूरयामः.
मम पार्श्वे करपत्रं नास्ति भगिनि, क्षम्यता. हलो,
अस्तु अस्तु भगिनि. अत्र गीताञ्जलि भगिनि, भवत्याः पार्श्वे करपत्रम् अस्ति वा? अत्र तवत् प्रत्ययान्ते परिवर्तनम्. अत्र कथा अस्ति, कथायाम् अत्र द्वितीयं करपत्रमस्ति भवत्याः पार्श्वे.
भगिनि, अद्य करपत्रम्
न न अहं किं पृष्टवती इत्युक्ते अत्र तवत् प्रत्ययान्तरूपाणि योजयित्वा रिक्तस्थानानि पूरयतु. अत्र कपोति कपोतयोः त्यागः इति कथायां, नो चेत् अत्र उषा भगिनी भवत्याः पार्श्वे करपत्रमस्ति चेत् करोतु भगिनी, भवती करोतु, सर्वे शृण्वन्तु, भवती करोतु. वदतु.
कश्चन व्याधः आसीत्, सः अतीव दुष्टः निष्करुणः च. एकदा सः वनं गतवान्. तत्र जालं प्रसारितवान्
प्रसारितवान्
एका कपोती जाले अपतत्.
अत्र भगिनि अपतत् इति रूपं लङ्लकाररूपं, परन्तु तवत् रूपं वदतु.
पतितवती.
तावदेव.
व्याधः कपोतिं पञ्जरे स्थापितवान्, अग्रे गतवान् च. तदा वृष्टिः आरब्धा. भीतः व्याधः आश्रयम् अनिश्रितवान्
अन्विष्टवान्
एकस्य महावृक्षस्य अधः आगतवान् सः वृक्षम् उद्दिश्य भोः अत्र यः वसति तं प्रति शरणागतः अस्मि मां रक्षतु इति उक्तवान्
अकथयत् इति लङ् रूपं परन्तु अस्माकम् अभ्यासः तु तवत् कथितवान्
किं भगिनि
कथितवान् कथयति इति अस्ति कथितवान्
तत्र वृक्षे एकः कपोतः आसीत् कपोतः व्याधस्य पञ्जरे स्थितां पत्नीं दृष्टवान् तदा सा कपोती पतिम् उद्दिश्य उक्तवती एषः व्याधः
भगिनि अत्र वक्ति इति क्रियापदस्य रूपम् उक्तवती परन्तु वदति इति पदस्य रूपं किं भवति
वदति
वयं चर्चितवन्तः पूर्वमेव उदितवती उदितवान् उदितवती परन्तु अत्र धातुः भिन्नधातुः वच् धातुः भिन्नः वद् धातुः भिन्नधातुः वच् धातुतः वक्ति उक्तवान् तत्र सम्प्रसारणं भवति उक्तवान् उक्तवती वदतु भगिनि
उदितवती एषः व्याधः शीतार्थः क्षुधार्थः अस्माकं गृहम् आगतः अस्ति एतस्य सत्कारं करोतु इति पत्न्याः वचनं कपोतः अङ्गीकृतवान् सः अङ्गारकम् आनीतवान् अग्निं ज्वालितवान्
वयं जानीमः अत्र क्रियापदमस्ति ज्वालयति स्थापयति ज्वालयति तथा अस्ति चेत् स्थापितवान् ज्वालितवान् तथा भवति अत्र ज्वालितवान् उत्तमं
ज्वालितवान् व्याधम् उक्तवान् भोः व्याधः
अत्रापि उदितवान्
भोः व्याधः शीताबाधं दूरीकरोतु इति अनन्तरं कपोतः
चिन्तितवान्
व्याधः क्षुधार्तः तस्मै दातुं गृहे आहारः नास्ति किं करोमि इति कपोतः व्याधम् उक्तवान् अतिथिमहाशय आहारं ददामि कृपया स्वीकरोतु इति कपोतः व्याधस्य आहारार्थम् अग्निं प्रेषितवान्
अत्र क्रियापदमस्ति प्रविशति प्र उपसर्गपूर्वकः विष् धातुः अत्र विष् धातोः रूपं विष्टान्तरूपं विष्टरूपं तावत् रूपमपि तादृशरीत्या एव भवति प्रविष्टवान्
कपोतस्य त्यागं दृष्ट्वा व्याधः लज्जाम् अनुभवति कपोतिं वन्दनात् मोचयति कपोति
अत्र भगिनी अत्र लज्जाम् अनुभवति अत्र वदतु अनुभवति इति रूपं तवत् रूपम्
अनुभवति लज्जाम् अनुभवति तवतु अनुभूतवती
उत्तमम् अनुभूतवान् अनुभूतवती
कपोतिं वन्दनात् मोचयति
अत्रापि अहं चिन्तयामि तत्र मुक्तवान् किमपि अहमपि सम्यक्तया न जानामि मोचयति वदतु
मोचितवान्
दृष्ट्वा वदामि भगिनि. धातुतः मुक्त मुक्त इति रूपम् आगच्छति.
मुक्तवती
अत्र मोचयति, अत्र निजन्तरूपम् अस्ति. मोचितवान् भवति वा इति दृष्ट्वा वदामि.
कपोति अपि पतिविरहदुःखेन अग्निं प्रविशति. इत्थं कपोति कपोतयोः त्यागं दृष्ट्वा व्याधः दुःखेन.
अत्र अत्र प्रविशति प्रविशति रूपं वदतु पुनः.
प्रविशति श्रीलिङ्ग प्रेषितवती
न न अत्र प्रेषयति तत्तु भिन्नं पदम्. अत्र प्रविशति प्रविशति अस्ति. प्र उपसर्गपूर्वकः विशति. वयं जानीमः एव अध्यापकः कक्ष्यां प्रविशति.
प्रविशति
इत्युक्ते तत्र अहं गृहं प्रविशामि तथा. अत्र प्रविशति अत्र रूपमस्ति. तावत् रूपं किम्? वयं पूर्वं उत्तमं प्रविष्टवती.
प्रविष्टवती प्रविष्टवती. इत्थं कपोति कपोतयोः त्यागं दृष्ट्वा व्याधः दुःखेन आश्रूणि श्रावयति.
श्रावयति अत्र रूपं किं भवितुमर्हति?
श्रावयति
श्रावयति इति पदस्य रूपं किं भवितुमर्हति?
लङ्लक
न अस्माकम् अस्माकं विषयः अस्ति तावत् प्रत्ययान्तरूपाणि. किमर्थं गते सप्ताहे वयं भूतकालरूपाणि तावत् रूपाणां विषये किञ्चित् अधीतवन्तः. तदर्थमेव अयम् अभ्यासः. श्रावितवान्
श्रावितवान् दुःखेन व्याधः श्रावितवान्
श्रावितवान् तावदेव उत्तमं.
श्रावितवान्
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 श्रावयति श्रावितवान् उत्तमम् उत्तमं भगिनि. धन्यवादः. अनन्तरम् अत्र सर्वे श्रावयन्तु वाक्यानि. अत्र कपोति कपोतयोः त्यागः कथायाः नीतिः का? शोभा भगिनी वदतु.
भारतदेशस्य संस्कारे अतिथिः देवः भवति. तस्य सत्कारं गृहस्थस्य कर्तव्यम् अपि च धर्मम्. रमणमहर्ष्येः आश्रमे एकदा एकं घटनम् अभवत्. केचन चोराः आश्रमे आगतवन्तः. धनार्थं तत्र स्थिते भक्तानां पीडितवन्तः. महर्षिमपि ताडितवन्तः. तद्यपि सः चोरान् उक्तवान् भोजनं कृत्वा गमिष्यतु इति. अनन्तरं महर्षि भक्तानाम् उक्तवान् ते चोराः अज्ञानेन तत्विधे वर्तितवान्, वयं तु धर्ममार्गे आस्म इति. पक्षिद्वयम् अपि स्वधर्मं पालितवान्. एतां
अत्र अत्र द्विवचने वक्तव्यम्. अत्र पक्षिद्वयमपि
पालितवन्तौ तावदेव भगिनि.
उत्तमम्. अत्र अहं यथा भवती उक्तवती तदेव अहमपि वक्तुम् इच्छामि. अत्र वयं जानीमः मातृदेवो भव, तदनन्तरम् अत्र अन्ततो गत्वा अतिथिदेवो भव इति वदामः. मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव, अतिथिदेवो भव. अत्र अत्र विग्रहवाक्यं वदामि. अत्र समासः अस्ति अतिथिदेवो भव इत्यस्मिन् अतिथिः देवः यस्य सः यस्य अतिथिः देवः यस्य सः सः एव अतिथिदेवो अतिथिदेवः भव इत्युक्ते तत्र भव इति लोट्लकाररूपं मध्यमपुरुषे एकवचनरूपम् अतिथिदेवो देवो इत्यस्मिन् तत्र विसर्गसन्धिः भवति अतिथिः देवः देवः एव अत्र विसर्गस्य स्थाने ओकारादेशः भवति प्रथमतया उकारः तदनन्तरम् ओकारः अतिथिदेवो भव अत्र उत्तमं भगिनि तादृशचिन्तनं प्राचीनकाले तादृशचिन्तनम् अस्ति परन्तु भवती इदानीन्तनकाले उदाहरणम् उक्तवती उत्तमं वयं जानीमः अहमपि पठितवती वयम् अधुना इति पदं जानीमः अधुना इति पदात् एव आधुनिक इति पदम् आगतम् आधुनिक वयं जानीमः आधुनिक अधुना इति पदात् आधुनिक
आधुनिककाले
कश्चन प्रत्ययं योजयित्वा तथा आगच्छति उत्तमं भगिनि अनन्तरं रघुपति आचार्यमहोदय भवान् श्रावयतु
अतिथेः सत्कारः अस्माकं धर्मः अस्ति यद्यपि वयं कष्टे पतिताः चेदपि पतिताः चेदपि धर्मस्य पालनं करणीयम् यदि वयं सत्यमार्गे अथवा धर्ममार्गे चरामः तदा अतिदुष्टानां दुष्टानामपि मनपरिवर्तनं कर्तुं शक्नुमः अतिथिदेवो सत्यमेव जयते इति वाक्यम् अस्माकं धर्मे अस्ति तावदेव भगिनि
उत्तमं परन्तु अहं चिन्तयामि कथा तत्र कथा तथा अभवत् वा न वा इति तु अन्या वार्ता परन्तु भारतदेशे तादृशी संस्कृतिः पूर्वतनकाले आसीत् कथा एतादृशरीत्या अभवत् वा न वा इति तु अन्या वार्ता परन्तु कवयः तादृशचिन्तनं कृत्वा काव्यानि लिखितवन्तः पश्यन्तु सर्वे अत्र वयं जानीमः रामायणकाव्यं जानीमः परन्तु रामायणकाव्ये अपि महर्षिः वाल्मीकिः तत्र एकं दृश्यं दृष्ट्वा तदनन्तरमेव सः रामायणकाव्यं लिखितवान् तदर्थमेव अत्र रामायणस्य प्रथमभागे एकः श्लोकः अस्ति मानिषादप्रतिष्ठा प्रतिष्ठां त्वम् अगमः शाश्वती समाः यत् क्रौञ्च मिथुनादेकम् अवधीः काममोहितम् इत्युक्ते अत्र सः वाल्मीकिः अत्र निषादं प्रति वदति एकः निषादः इत्युक्ते व्याधः एव निषादम् उद्दिश्य व्याधम् उद्दिश्य वदति हे निषाद त्वं शाश्वतीः समाः प्रतिष्ठां मा अगमः इत्युक्ते अत्र तत्रापि एका कथा अस्ति रामायण काव्यं कथम् आगतं तस्य कृते एका कथा अस्ति तत्र श्लोकः एव मानिषाद सर्वे पश्यन्तु उत्तमः श्लोकः मानिषादप्रतिष्ठां त्वम् अगमः शाश्वती समाः यत् क्रौञ्च मिथुनात् एकम् अवधीः काममोहितम् तत् श्लोकः उत्तमः श्लोकः उत्तमम् अनन्तरम् अत्र वंशसुधा भगिनी भवती वदतु
नमस्ते भगिनि क्षम्यतां विलम्बेन आगतवती कपोती कपोतयोः कथायां महान् नीतिः भवति कपोतौ व्याधम् अतिथिसत्कारं कृतवन्तौ कपोतौ साक्षात् अतिथिदेवो भव मन्त्रस्य पालनं कृतवन्तौ अतिथिः यः अतिथिना पश्यति आयाति सः अतिथिः वेदे भवती एव उक्तवती पूर्वस्मिन्
कक्षायां
वेदे प्रसिद्ध उक्तिः भवति न धनेन न ज्ञानेन न प्रजया त्यागेन एकेन अमृतत्वमानुषुः इति कपोतः व्याधस्य आहारार्थं तव शरीरम् अग्ने आहुति दत्तवान् कपोतः शरीरस्य त्यागं कृतवान् अन्तिमवाक्यम् अहं किञ्चित् लिखितवती परन्तु अहं न जानामि भगिनी सम्यक् अस्ति वा परन्तु भवती एव समीकरोतु यदा त्यागः अर्थः कथायां स्पष्टं भवति यदा अस्माकं समयः निस्वार्थिना कार्येषु समर्पणं कुर्मः तदा जीवनस्य सर्वोच्चम् उपयोगं भवति
भगिनी उत्तमम् उत्तमं वदतु भगिनि
भगिनि अहमपि
अन्तिमवाक्यं सम्यक् अस्ति वा न वा इति भवती वदति
भगिनि किञ्चित् किञ्चित् खण्डस्यः पश्यामः अत्र बहु वाक्यं दीर्घं वाक्यम् अस्ति किञ्चित् खण्डस्यः पश्यामश्चेत् सुलभः भवति भवती प्रथमं वाक्यम् उक्तवती अत्र महान् प्रथमं वाक्यं वदतु अत्र वाक्यं वदतु
कपोति कपोतयोः कथायां महान् महान् नीतिः भवति
अत्र पश्यतु नीतिः स्त्रीलिङ्गपदम्
आं भगिनि आम् आम्
अहम् अहं महती अत्र अनन्तरं द्वितीयं वाक्यं वदतु
कपोतौ व्याधम् अतिथिः सत्कारं कृतवन्तौ
अतिथिसत्कारं कृतवन्तौ
अनन्तरं कपोतौ साक्षात्
अहं कपोति कपोतौ अत्र व्याधम् अतिथिसत्कारम् इत्युक्ते अत्र भवती कर्मपदद्वयं योजितवती अत्र क्रूधातुः सकर्मकधातुः परन्तु द्विकर्मकधातुः वा न वा इति अहं न जानामि परन्तु अत्र व्याधम् इति एकं कर्मपदम् अतिथिसत्कारं कृतवन्तौ इत्युक्ते तस्मिन् वाक्ये कर्मपदद्वयं योजितवती
आं महोदय
तथा अनन्तरम् अग्रिमं वाक्यं
कपोतौ साक्षात् अतिथिदेवो भव मन्त्रस्य पालनं कृतवन्तौ
उत्तमम्
अतिथिः यः तिथिना पश्यति आयाति सः अतिथिः वेदे प्रसिद्ध उक्तिः भवति न धनेन न ज्ञानेन न प्रजया त्यागेन ऐकेन अमृतत्वमानुषिः इति
त्यागेन एकेन एव अमृतत्वम् अमृतत्वमानुषिः
आं महोदय उपनिषदे उपनिषदे अस्ति कपोतः कपोतः
भगिनी अत्र पश्यतु उपनिषदि
उपनिषदि
किमर्थमित्युक्ते अत्र उपनिषत् इति पदम् अत्र दकारान्तपदं परन्तु सप्तमी विभक्तौ किं भवति इत्युक्ते उपनिषदि वाक्यमस्ति
आं महोदय
यथा भवती जानाति एव भवान् शब्दः सकारान्तपदम् इत्युक्ते हलन्तपदमस्ति चेत् यदि पदं हलन्तः अस्ति चेत् हलन्तमस्ति चेत् तत्र सप्तमी विभक्तौ केवलं तत्र भवत् शब्दस्य रूपं भवति इति भवति तथा एव उपनिषद् इति तस्य सप्तमी रूपम् उपनिषदि
उपनिषदि
उत्तमम्
कपोतः व्याधस्य आहारार्थं तव शरीरम् अग्ने आहुति दत्तवान्
अग्निः शब्दस्य रूपम् अग्नौ
अग्निः हरिः शब्दवत् आं महोदय अग्नौ कपोतः शरीरस्य त्यागं कृतवान् अन्तिमवाक्यमस्ति यदा अस्माकं समयः निस्वार्थिना कार्येषु निस्वार्थिना इति नकारान्तशब्दं भगिनि
अत्र स्वार्थं स्वार्थिना
अहं लिखितवती अहं
अत्र निस्वार्थेन इति वदतु.
आम् निस्वार्थेन यदा अस्माकं समयः निस्वार्थेन तृतीयविभक्ति निस्वार्थेन कार्येषु समर्पणं कुर्मः तदा
भगिनी अत्र यथा मुनिना निस्वार्थिना अपि तृतीयाविभक्ति भवितुम् अर्हति, परन्तु निस्वार्थेन इति सम्यक् रूपम् इति अहं चिन्तयामि.
ओके, आं भगिनि, अहं न जानामि इति निस्वार्थिन इति पदम् अहं पश्यामि दृष्टवती इति कारणे निस्वार्थिना इति अहं लिखितवती, अहं न जानामि सम्यक्
अस्तु अस्तु भवती दृष्टवती चेत् भवती दृष्ट्वा एव लिखितवती चेत् तत् सम्यक्. अस्तु,
निस्वार्थ कार्येषु समर्पणं कुर्मः तदा जीवनस्य सर्वोच्चम् उपयोगं भवति.
जीवनस्य उपयोगः भवति
सर्वोच्चः सुप्रीम् इति कोष्टके निघण्टु अस्ति सर्वोच्चम् उपयोगं भवति.
अत्र पदम् अहं पूर्वं दृष्टवती अपि च अहं यदा कदापि तस्य उपयोगमपि कुर्वती अस्मि, तदर्थं वदामि उपयोगः इति पदम् भवति इति भूधातुः अकर्मकः इति कृत्वा उपयोगः भवति. उत्तमं भगिनि, सम्यक्
धन्यवादः भगिनि.
उत्तमम्. अनन्तरम् अत्र उषा भगिनी भवती लिखितवती वा?
आं भगिनि,
श्रावयतु.
सुन्दरे वृक्षे कपोतयुगलं सन्तोषेण जीवनं कृतवत्. एकदा एकः दुष्टः निष्करुणः व्याधः जाले पतितं कपोतिं पञ्जरे स्थापितवान्. सः वृष्टेः कारणात् तयोः कपोतयोः एव वृक्षस्य अधः शरणं गतवान्. कपोती शीतार्थस्य बुभुक्षितस्य व्याधस्य वेदनां द्रष्टुं स्वपतिम् उक्तवती. सा व्याधस्य सत्कारं कर्तुमपि प्रार्थितवती. यतः सः शीतार्थः बुभुक्षितः अतिथिरूपेण आगतवान्. कपोतः उक्तवान्, यदि व्याधः रक्षितः तर्हि त्वां खादिष्यति. कपोती उक्तवती, मम पूर्वजन्मकर्मफलात् अहं पञ्जरे पतितवती, किन्तु अतिथिः देवो भव इति उच्यते, अतः तं रक्षतु. कपोतः व्याधस्य भोजनाय अग्निं ज्वालयित्वा स्वप्राणान् त्यक्तवान्. कपोती अपि स्वप्राणान् त्यक्तवती. एतद् दृष्ट्वा व्याधः लज्जाम् अनुभूतवान्. कथायाः शिक्षा अस्ति, मानवैः जीवने सत्कर्म करणीयम्, सद्वचनं च वदनीयम्, यतोहि स्वपूर्वजन्मकर्मफलेन एव अस्य जन्मस्य जीवनं भवति अथवा जन्मनः जीवनं भवति. महोदय,
जन्मस्य जीवनं भवति इत्युक्ते भवती किं वक्तुमिच्छति तत्र? जन्मस्य अत्र जन्म सार्थकं भवति इति वक्तुमिच्छति?
यतोहि स्वपूर्वजन्मकर्मफलेन एव अस्य जन्मनः जीवनं भवति. The life will, like...
Oh, karma anusrutya eva janma bhavati, jivanam bhavati. Astu, uttamo.
Va purva janma karma phalena eva asya janmanaha jivanam bhavati.
Astu. Uttamo. Anantram atra Geetanjali bhagini shravayetu.
आं भगिनि, एषा कथा कपोतिकपोतयोः पूर्णः त्यागः धर्मार्थं दर्शयति. यद्यपि व्याधः अतीव दुष्टः निष्करुणः च निगूढे तस्मिन् किञ्चित् करुणा आसीत्.
उत्तमम् उत्तमं वाक्यम् उत्तमं वाक्यम्.
गृहात् स्वार्थबुद्धि निघृणता उपजायते. गृद्धात् स्वार्थबुद्धि निघृणता उपजायते.
तद्वाक्यं कुत्रतः स्वीकृतवती भवती तद्वाक्यम्? अत्र वाक्यं पुनः वदतु तद्वाक्यं. अत्र क्रोधः अहं जानामि क्रोधः गृधा ग्रीड् पदं किं प्रथमविभक्तिरूपं किं ओ अस्तु. अनन्तरं
वृद्धः सम्यक् महोदय.
अत्र
पञ्चमी विभक्तिः एकवचनम्
आम् पञ्चमी विभक्ति वृद्धात् अस्तु. अत्र पदं किम् इति अहमपि दृष्ट्वा एव वक्तुं शक्नोमि.
गृद्धात् स्वार्थबुद्धि निघृणता उपजायते.
निघृणता उपजायते
क्रूल्टि निघृणता
निघृणता निघृणता. अनन्तरं नूतनानि पदानि उत्तमं.
स्वार्थबुद्धि इति पदं
वदतु भगिनि. केवलं वदामि. वदतु भगिनि अग्रिमं किं वाक्यं किं वदतु.
तावदेव भगिनि.
अन्तिमं वाक्यं किं पुनः एकवारं.
गृद्धात् स्वार्थबुद्धि निघृणता उपजायते.
अस्तु उत्तमम्. अनन्तरम् अत्र जयन्त् महोदय भवान् लिखितवान् वा अत्र वाक्यानि? जयन्त् महोदय नो चेत् भूमा भगिनी भवती वदतु.
आं भगिनि. कपोति दम्पत्योः त्यागम् उत्कृष्टं सन्देशम् अस्माकं बोधयति.
अस्मान् बोधयति.
अस्मान् ओ ओ अस्मान् बोधयति. कपोति स्वपातिव्रत्यम् इदानीं दर्शयति. कपोतदम्पत्योः उदाहरणं वयं स्वीकरणीयम् अवश्यं स्वीकरणीयम्. वयं त्यक्त्वा अतिथिसत्कारं या उपकारं करणीयम् अन्येषु.
एतद्वाक्यं भगिनी, एतद्वाक्यं तावत् सुलभः नास्ति. इत्युक्ते अन्येषां वेदनां दृष्ट्वा अस्माकं स्वस्य वेदनां तत्तु वक्तुं शक्नुमः, परन्तु इत्युक्ते अत्र तावत् सुलभः नास्ति इति अहं
चिन्तयामि. सुलभं नास्ति.
वदतु भगिनि, उत्तमं
प्रयत्नं
प्रयत्नं
करिष्यामि.
अस्तु अस्तु, धन्यवादः. उत्तमं भगिनि. अनन्तरम् अत्र जयन्त महोदय, भवान् वदति वा, लिखितवान् वा? अस्तु अस्तु महोदय. अधुना वयं गृहपाठविषये किञ्चित् चिन्तनम् अभवत्, अनन्तरम् अग्रिमविषयः कः इति किञ्चित् पश्याम. अत्र सर्वे एकवारम् अभ्यासपुस्तकं पश्यन्तु. अत्र 11.3 भागे, अत्र 11.3 ई भागे दीर्घ ईकारः, अत्र पुटसङ्ख्या अस्ति 141 पुटे. सर्वे पश्यन्तु, अत्र एकः अभ्यासः अस्ति तदपि. अत्र केवलं भूतकालविषये एव तत्र अभ्यासं कुर्मः. प्रथमतया अत्र भूमा भगिनी भवती करोतु, अत्र अभ्यासं करोतु.
आम्, एतद् दृष्ट्वा कः कदा कुत्र आसीत् इति लिखतु. सन्दीपः दशवादने विद्यालये आसीत्. सम्यक् भगिनि?
आं भगिनि, विद्यालये. अत्र उदाहरणत्वेन तद् वाक्यं
सन्दीपमेव
लिखितं, उदाहरणत्वेन दत्तमस्ति.
दिव्या दश एकादशवादने क्रीडाङ्गणे स्थितवती
अथवा अत्र आसीत्
आसीत् आसीत् भूतकाले एव तत् द्वान्तप्रत्ययः.
भगिनि अत्र पश्यतु, सूचना का इत्युक्ते एतत् दृष्ट्वा कः कदा कुत्र कः कदा कुत्र आसीत्.
ओके ओके, आं भगिनि, क्षम्यताम्. कृष्णः द्वादशवादने गृहे आसीत्. अहं सप्तवादने ग्रन्थालये आसम्. वयं अष्टवादने वित्तकोषे
उत्तमम् उत्तमम्. इत्युक्ते अत्र अस् धातोः रूपाणि अत्र प्रथमपुरुष एकवचनरूपम् अपि च बहुवचनरूपं लेखनीयं वयं कृतवन्तः. उत्तमं भगिनि. अनन्तरम् अत्र धन्यवादः. अनन्तरम् अत्र शोभा भगिनी भवती अत्र एकवारं लृट्लकाररूपाणाम् इत्युक्ते भविष्यत्कालरूपाणां विषये किञ्चित् चिन्तनं कुर्मः वयम्. अहं वर्तमानकाले अहं संस्कृतं पठामि अद्य. अहम् अद्य संस्कृतं पठामि. ह्यः संस्कृतम् अहं पठितवती. अथवा अहं ह्यः संस्कृतम् अपठम्. परह्यः अहं संस्कृतम् अपठं, तथा वक्तव्यं. परन्तु भविष्यत्काले अहं श्वः संस्कृतं किं वक्तव्यं?
पठिष्यामि.
पठिष्यामि, उत्तमं, तावदेव. इत्युक्ते अत्र भूतकालरूपम् अपि च वर्तमानकालरूपं पश्यामश्चेत् तत्र भेदः कः इत्युक्ते अत्र तावत् भेदः नास्ति, केवलं पठति इति रूपं पठिष्यति इति भवति, केवलं अत्र मध्ये एकः प्रत्ययः आगच्छति, अन्तिमं रूपं समानमेव.
तियन्तम्
इत्युक्ते अन्ति अन्तिमभागः समानः. यथा गच्छति इति पदस्य रूपाणि वदतु, प्रथमपुरुषे एकवचनरूपाणि.
अहम् अद्य विद्यालयं गच्छामि, ह्यः गतवती, श्वः गमिष्यामि.
गमिष्यामि, परन्तु गच्छति इति क्रियापदस्य
वर्तमानकाल
प्रथमपुरुषवर्तमानकालरूपाणि.
गच्छति, गमिष्यति,
न न न वर्तमानकालरूपं, वर्तमानकालरूपम् एकवचने गच्छति, प्रथमपुरुषे एकवचनरूपं गच्छति, गच्छतः, गच्छतः, गच्छन्ति,
गच्छन्ति.
तथा एव भविष्यत्कालरूपाणि वदतु.
भविष्यत् गमिष्यति, गमिष्यतः, गमिष्यन्ति.
उत्तमम्. इत्युक्ते केवलम् अत्र गच्छति, गच्छतः, गच्छन्ति लट्लकाररूपाणि, परन्तु रुट्लकाररूपाणि गमिष्यति, गमिष्यतः, गमिष्यन्ति. इत्युक्ते अन्तिमभागः समानः एव तत्र. यदि वयं लट् रूपाणि वर्तमानकालरूपाणि जानीमश्चेत् भविष्यत्कालरूपाणि सुलभानि एव. एकवारं तत्र केवलम् अत्र मध्ये अत्र भविष्यत्कालरूपाणां कृते एकः प्रत्ययः आगच्छति, स्या इति प्रत्ययः आगच्छति. यदा कदापि स्या इत्यस्मिन् स्थाने श्या इति अपि भवति. तत्र आदेशप्रत्ययोः इत्यनेन अत्र सकारस्य स्थाने षकारादेशः भवति. उत्तमम्. अनन्तरम् अत्र अहं कांश्चन प्रश्नान् पृच्छामि. अधुना अत्र एकं सस्यमस्ति, परन्तु भविष्यत्काले तत् किं भवति?
भविष्यत्काले सस्यं वृक्षः भवति.
उत्तमम्. अत्र एकः बालकः अस्ति, सः किं भविष्यति?
बालकः पुरुषः भविष्यति.
उत्तमम्. अत्र आम्रवृक्षः अस्ति, आम्रवृक्षः अधुना पुष्पितः अस्ति, परन्तु भविष्यत्काले किं भविष्यति?
क्षम्यतां भगिनी, पुष्पितः?
आम्रवृक्षः पुष्पितः अस्ति.
पुष्पितः, पुष्पितः न जानामि.
तत्र पुष्पाणि पुष्पितः,
पुष्पितः, पुष्पितः. ओ ओके. पुष्पितः भविष्यत्काले फलितः भवति.
उत्तमम्. इत्युक्ते आम्रफलानि,
आम्रफलानि फलितः,
आम्रफलानि आगच्छन्ति अथवा आम्रफलानि भविष्यन्ति. इत्युक्ते अधुना आम्रवृक्षे पुष्पाणि सन्ति, तत्र तदा किं वदामः? आम्रवृक्षः पुष्पितः. इत्युक्ते तत्र एकान्तरूपं योजयामः, आम्रवृक्षः पुष्पितः, अधुना पुष्पितः, परन्तु भविष्यत्काले आम्रफलानि आगमिष्यन्ति. अपि च अधुना आकाशे मेघाः सन्ति. वदतु, अनन्तरं किं भविष्यति?
अनन्तरं वृष्टिः भविष्यति.
उत्तमम्. अधुना अत्र सुप्रभातम् अस्ति, अनन्तरं किं भविष्यति?
अनन्तरं मध्याह्नः, अनन्तरं सायङ्कालं, सायङ्कालः भविष्यति. भगिनी, मम एकः प्रश्नः, यथा फलितः पुष्पितः, यदि आकाशे मेघाः सन्ति, किं वाक्यं रचितुं शक्नुमः? तथा अस्ति वा? आकाशः
अधुना आकाशे मेघाः सन्ति अतः वृष्टिः भविष्यति इति वक्तुं शक्नुमः
न भगिनि मम प्रश्नः मम प्रश्नं यथा वृक्षः फलितः तत् वाक्यम् अत्र आगच्छति वा मे आकाशः नागच्छति
तथा तत्र किं वक्तव्यम् इति अहमपि सम्यक् न जानामि भगिनि
आं भगिनि
अत्र तथा कथं वक्तव्यम् आम्रवृक्षः पुष्पितः तथा एव आकाशः मेघावृतः
सम्यक्
अत्र विशेषणरूपेण आकाशः मेघावृतः मेघावृतः अस्ति चेत् तथा वृष्टिः भविष्यति तावदेव अनन्तरम् अत्र यदि एकं वृक्षं पश्यामश्चेत् तत्र वृक्षे बह्व्यः कलिकाः सन्ति कलिका इत्युक्ते
बर्ड्स्
उत्तमं वृक्षे बह्व्यः कलिकाः सन्ति तदा किं वक्तुं शक्नुमः ताः कलिकाः
अनन्तरं पुष्पाणि भवति
पुष्पाणि भविष्यन्ति
पुष्पाणि भविष्यन्ति
इत्युक्ते अस्माकं विषयः अस्ति लुट्रकाररूपाणि भविष्यत्कालरूपाणि तदर्थमेव अनन्तरम् अद्य गुरुवासरः अस्ति श्वः
शुक्रवासरः भविष्यति
उत्तमम् अधुना फलानि अपक्वानि सन्ति
अनन्तरं फलानि पक्वानि भविष्यन्ति
उत्तमम् अधुना उषः कालः अस्ति अनन्तरं
उषःकालः अनन्तरं मध्याह्नकालः भविष्यति
अत्र अहं किं वदामि इत्युक्ते उषःकालस्य अनन्तरं सूर्योदयः भविष्यति साधारणतया उत्तमम् अधुना अद्य जून् मासस्य त्रयोदशदिनाङ्कः श्वः कः दिनाङ्कः भविष्यति
श्वः 14 चतुर्दशदिनाङ्कः भविष्यति
उत्तमम् अधुना वयं सर्वे अभ्यासपुस्तकं पठामः आगामिवर्षे किं पठिष्यामः
आगामिवर्षे वयं गीतासोपानं पठिष्यामः
उत्तमम् अनन्तरम् अधुना अत्र एकः युवतिः अविवाहितः अस्ति आगामिवर्षे किमपि वदतु अत्र केवलम् अभ्यासार्थं
सा आगामिवर्षे विवाहितः अस्ति भविष्यति वक्तुं शक्नोमि किन्तु अस्ति भविष्यं किम् अस्ति
आं भगिनि अत्र पश्यन्तु सर्वे पश्यन्तु अत्र अस् धातोः भविष्यत्कालरूपं भविष्यति तथा एव भूधातोः भविष्यत्कालरूपम् अपि भविष्यति अस् धातोः भविष्यत्कालरूपं तत्र भिन्नं पदं नास्ति केवलं भविष्यति एव अत्र अहं चिन्तयामि अस्तेर्भूः इति सूत्रेण अत्र अस् धातोः कृते भविष्यत्कालरूपं भविष्यति एव अनन्तरम् अत्र माता वा पिता वा पुत्री अथवा पुत्रं वा दृष्ट्वा ते चिन्तयन्ति किं चिन्तयन्ति प्रथमतया मम पुत्रः सम्यक् अधुना सः बालकः परन्तु अधुना अनन्तरं सः सम्यक् पठिष्यति तदनन्तरं सः विश्वविद्यालयं गमिष्यति अनन्तरं सः स्नातकः भविष्यति अनन्तरं सः सम्यक् उपाधिं प्राप्स्यति, तदनन्तरं सः सम्यक् रीत्या धनं सम्पादयिष्यति, अनन्तरं सः सुखेन जीविष्यति इति माता वा पिता वा पुत्रीं प्रति वा अथवा पुत्रीं दृष्ट्वा वा अथवा पुत्रं दृष्ट्वा वा तथा ते चिन्तयन्ति. उत्तमं, तावदेव. अनन्तरं वर्तमानकाले
किं पदम् उक्तवती भगिनी? स्नातकः.
स्नातकः स्नातकः ग्राजुयेशन्
स्नातकः.
स्नातकः भविष्यति, अनन्तरम् उपाधिं प्राप्स्यति, धनं सम्पादयिष्यति, अनन्तरं सुखेन जीविष्यति इति उक्ते
चिन्तयति. उपाधिम् उपधि पदस्य पदे आगच्छति वा?
उपाधिः, उपाधिः इत्युक्ते एम्प्लाय्मेण्ट्. उपाधिः, उपाधिः इत्युक्ते जाब्, किमपि जाब् प्राप्स्यति इति ते चिन्तयन्ति. अहं वर्तमानकाले वा. धन्यवादः भगिनी. अनन्तरम् अत्र उषा भगिनी भवती वदतु. अहं लट्लकारे वाक्यं वदामि, भवती भविष्यत्काले वदतु. अहं देवालयं गच्छामि.
अहं देवालयं गमिष्यामि.
अहं संस्कृतं पठामि.
अहं संस्कृतं पठिष्यामि.
अहम् ईश्वरं स्मरामि.
अहम् ईश्वरं स्मरामि. स्मरिष्यामि.
उत्तमं. स्मरिष्यामि.
स्मरिष्यामि.
अहं वेगेन धावामि.
अहं वेगेन धाविष्यामि.
अहं कन्दुकेन क्रीडामि.
अहं कन्दुकेन क्रीडिष्यामि.
अहम् आम्रफलं खादामि.
अहम् आम्रफलं खादिष्यामि.
अहं देशसेवां करोमि.
अहं देशसेवां करिष्यामि.
अहं जलं पिबामि.
अहं जलं पिबामि. पास्यामि.
पास्यामि. उत्तमम्. अहं कारयानं चालयामि.
अहं कारयानं चालयिष्यामि.
चालयिष्यामि.
चालयिष्यामि. चालयिष्यामि.
उत्तमम्. अहं संस्कृतशब्दकोशं पश्यामि.
अहं संस्कृत पश्यामि.
किञ्चित् नूतनं, किञ्चित् नूतनं पदम् अस्माकं कृते. पश्यामि इति पदस्य भविष्यत्कालरूपं किं वदतु भगिनि, जानाति चेत् वदतु. भविष्यत्कालरूपम्. उत्तमं. द्रक्ष्यामि. द्रक्ष्यामि. अहं भगवद्गीतां पठामि.
अहं भगवद्गीतां पठिष्यामि.
अहं सङ्गीतं शृणोमि.
अहं सङ्गीतं शृणोमि. इस् लिसन् श्रोष्यामि.
उत्तमं. श्रोष्यामि. अनन्तरं अहम् उद्याने सञ्चरामि.
अहम् उद्याने सञ्चरामि. सञ्चिष्यामि.
सञ्चरिष्यामि.
सञ्चरिष्यामि.
उत्तमम्. अहं पुष्पाणि धरामि.
अहं पुष्पाणि धारिष्यामि.
धरिष्यामि.
धरिष्यामि.
उत्तमम्. अनन्तरम् अहं श्वः प्रातःकाले उत्तिष्ठामि. श्वः न, अहं प्रातःकाले उत्तिष्ठामि इति वाक्यमस्ति. भविष्यत्काले वदतु.
भविष्यत्काले अहं श्वः अहं प्रातःकाले उत्तिष्ठामि.
अत्र उत्तिष्ठामि इति रूपं लट्लकाररूपं, परन्तु उत्थास्यति, परन्तु उत्तमपुरुष वदतु.
उत्तमपुरुष
अत्र अहं श्वः वदतु.
अहं श्वः प्रातःकाले उत्थायामि. रैट्,
उत्तमं, तावदेव वदतु. उत्थास्यामि उत्तमम्. अनन्तरं ग्रीष्मकाले आम्रफलानि फलन्ति.
ग्रीष्मकाले आम्रफलानि फलन्ति. ग्रीष्मकाले आम्रफलानि
फलानि भविष्यत्कालरूपं
फलन्ति.
शोभा भगिनी वदति वा अत्र रूपं किं भवति?
फलति भविष्यत्काले,
फलति,
फलिष्यति,
फलति भविष्यतः फलिष्यन्ति.
वदतु भगिनी, उषा भगिनी.
फलति फलतः फलिष्यन्ति, फलति फलतः फलत फलामि
फलामि. न भगिनी, अत्र अत्र अस्माकं वाक्यमस्ति ग्रीष्मकाले आम्रफलानि फलन्ति इति अहम् उक्तवती, परन्तु भविष्यत्काले फलन्ति इति पदस्य भविष्यत्कालरूपं योजयित्वा वदतु. फलिष्यन्ति,
फलिष्यन्ति,
फलिष्यन्ति. वाक्यं किं भवति?
ग्रीष्मकाले आम्रफलानि फलिष्यन्ति.
उत्तमं. वसन्तकाले नूतनानि पत्राणि आगच्छन्ति.
आगच्छन्ति नूतनकाले,
वसन्तकाले, वसन्तऋतौ,
वसन्तकाले
नूतनानि पत्राणि
आगमिष्यन्ति.
सुन्दरं. वसन्तकाले नूतनानि पत्राणि आगमिष्यन्ति. शिशिरऋतौ पुरातनानि पर्णानि पतन्ति.
पतिष्यन्ति.
उत्तमं. शिशिरऋतौ,
शिशिरऋतौ किम् अर्थः अस्ति भगिनि?
ऋतुः भगिनि, शिशिर ऋतुः अस्ति, वसन्त ऋतु. शिशिरऋतौ पुरातनानि पर्णानि पतिष्यन्ति. तथा एव वसन्तकाले कोकिलाः कूजन्ति.
वसन्तकाले कोकिलः कूजन्ति, कूजिष्यन्ति.
उत्तमं. वाक्यं वदतु पूर्णतया.
वसन्तकाले कोकिलः कूजिष्यन्ति.
कोकिलाः कूजिष्यन्ति. तथा एव वसन्तकाले मयूराः नृत्यन्ति.
वसन्तकाले मयूराः नृत्यष्यन्ति. नर्तिष्यन्ति.
अस्माकं कृते एतानि पदानि नूतनानि, परन्तु अभ्यासं कुर्मः चेत् वयं ज्ञातुं शक्नुमः. तदर्थमेव पृच्छामि. वसन्तकाले मयूराः नर्तिष्यन्ति. तथा एव छात्राः अध्यापकं प्रश्नान् पृच्छन्ति.
छात्रान् अध्यापकान् प्रश्नान् पृच्छन्ति. न जानामि,
अस्तु अस्तु भगिनि, परन्तु अस्माकं कृते एतानि पदानि नूतनानि, परन्तु प्रथमवारम् अत्र अभ्यासं कुर्मः चेत् वयं ज्ञातुं शक्नुमः. तदर्थं पृच्छामि. सम्यक् भगिनि, अत्र वयम् अत्र पृच्छन्ति इति पदस्य वदतु भगिनि.
प्रक्षयन्ति,
प्रक्ष्यन्ति,
प्रक्ष्यन्ति. आम् आम्,
अत्र प्रक्षयन् तत्र अकारः नास्ति, केवलं प्रक्ष्यन्ति यथा द्रक्ष्यन्ति. पश्यति, पश्यति इति पदस्य भविष्यत्कालरूपं द्रक्ष्यति. तथा एव अत्र पृच्छति इति पदस्य रूपं प्राक्ष्यति. उत्तमं, धन्यवादः उषा भगिनी. अनन्तरं भूमा भगिनी, भवती कर्तुम् इच्छति वा?
भगिनी एकः प्रश्नः अस्ति, इदानीं भविष्यत्काले अपि इदागमः भवति वा भगिनि? धाविष्यति.
अत्र अत्र कुत्रचित् इडागमः भविष्यति, कुत्रचित् न भवति. अत्र भविष्यति तत्र इडागमः अस्ति. लेखिष्यति, पतिष्यति.
प्रत्ययनाम किञ्चित् वदति वा भगिनि? पूर्वे इति प्रत्ययः अस्ति, भविष्यत्काले प्रत्यय किं भगिनि? किं प्रत्ययोजनाः भविष्यत्कालरूपाणि आगच्छति भगिनि?
अत्र स्या इति प्रत्ययं योजयामः. अत्र गमिष्यति इति पदम् अत्र किञ्चित् म्यूट् करोमि. अत्र किं भवति इत्युक्ते, कुत्रचित् इडागमः भवति, कुत्रचित् इडागमः न भवति. इत्युक्ते इडागमः इत्युक्ते मध्ये इकारः आगच्छति. यथा गमिष्यति रूपमस्ति, तथा एव पतति, पतिष्यति, अपि च अत्र पतिष्यति, पठिष्यति, अत्र इकारः दृश्यते. परन्तु द्रक्ष्यति अथवा पास्यति तत्र इडागमः न भवति. इत्युक्ते अत्र गते सप्ताहे एव वयं पठितवन्तः, तदर्थं वदामि. अत्र धातुः सेट्, अपि च प्रत्ययः अपि सेट् अस्ति चेत् एव इडागमः भवति. इत्युक्ते अत्र धातुः अनिट् अस्ति, परन्तु प्रत्ययः सेट् अस्ति चेत् अपि तत्र इडागमः न भवति. इत्युक्ते अत्र प्रत्ययं, प्रत्ययः अपि सेट् भवतु, धातुः अपि सेट् अस्ति चेत् एव इडागमस्य प्रसक्तिः अस्ति. तदानीम् एव इडागमः भवितुमर्हति इति तत्र एकः नियमः. अत्र वयं प्रथमतया धातुं द्रष्टव्यं, धातुः द्रष्टव्यः, अपि च प्रत्ययः कः, इडागम अनुकूलता अस्ति वा, इडागमानुकूलता नास्ति वा, धातुः इडागमानुकूलः अस्ति वा, प्रत्ययः अपि इडागमानुकूलः अस्ति वा इति तत्र द्रष्टव्यं. तदानीम् एव वयं वक्तुं शक्नुमः तत्र इडागमः भवति वा, मध्ये इकारः आगच्छति वा न वा इति वक्तुं शक्नुमः. तत्तु अन्यः विषयः. अस्तु भगिनि, अनन्तरम् अत्र भूमा भगिनी भवती करोतु. अत्र पर्वदिने वयं भक्षणानि भक्षयामः. पर्वदिनसमये वयं भोजनं योजयतु. पर्वदिनसमये वयं मधुरं अथवा मधुरं, पर्वदिनसमये वयं मधुरं भक्षयामः. भविष्यत्काले किं वदामः?
भक्ष्यामः.
भक्षयामः, भक्षयति, भक्षयति इति क्रियापदं. वदतु.
सर्वदिने वयं भोजनं भक्ष्यामः.
भक्षयिष्यामः.
भक्षयिष्यामः, साक्षात्
इत्युक्ते अत्र क्रियापदमस्ति भक्षयति. उत्तमपुरुषे भक्षयामि. भविष्यत्कालरूपं किं भवति?
भक्षयामि, भक्षयावः, भक्षयामः.
तत्र भ्रमः मास्तु, अत्र भ्रमः नास्ति, तत्र पदमस्ति भक्षयति, परन्तु भविष्यत्कालरूपमस्ति भक्षयिष्यति,
भक्षयिष्यति,
भक्षयिष्यति, भक्षयिष्यतः, भक्षयिष्यन्ति, तथा एव उत्तमपुरुषे भक्षयामि वदतु,
भक्षयिष्यामि, भक्षयिष्यावः, भक्षयिष्यामः,
तावदेव. अहम् आपणतः कदलीफलं क्रीणामि, भविष्यत्कालरूपं
क्रीणयिष्यामि, क्रीणयिष्यावः, क्रीणयिष्यामः.
आं भगिनि, अत्र तत्र तथा न भवति, अत्र अहम् आपणतः कदलीफलं क्रेष्यामि,
क्रीतयिष्यामि,
न न क्रेष्यामि,
क्रेष्यामि.
अत्र इत्युक्ते अत्र कुत्रचित् गुणादेशः भवति, यथा पश्यतु अत्र लिखति, लिखति इति पदस्य रूपं किं भवति, लेखिष्यति, लेखिष्यामि. अत्र लिखति इति पदस्य रूपं लेखिष्यति, तथा एव क्रीणाति इति पदस्य रूपं क्रेष्यति, परन्तु उत्तमपुरुषे क्रेष्यामि तथा भवति. अनन्तरम् अहं धनं ददामि, नो चेत् वयं किं कुर्मः इत्युक्ते, अधुना भगिनी भवती एव पठतु, अत्र भविष्यत्कालरूपाणि सन्ति, करपत्रं पश्यन्तु सर्वे, अत्र एकं करपत्रमस्ति, क्रियापदकोष्टकम् इति करपत्रमस्ति, सर्वे एकवारं भवती एव पठतु भगिनी, अत्र
केवलं
न करपत्रं, करपत्रं दत्तमस्ति अत्र
मम पार्श्वे न अस्ति भगिनि, सम्यक्
अस्तु,
दास्यति भगिनि, दास्यति, ददाति, दास्यति.
अत्र गीताञ्जलि भगिनी भवत्याः पार्श्वे करपत्राणि सन्ति वा?
आं भगिनि.
प्रथमं करपत्रं पठतु अत्र.
लृट् लकारे करपत्रं भगिनि.
प्रथमं करपत्रं,
प्रथमं लृट् लकार, भविष्यति, भविष्यतः, भविष्यन्ति, भविष्यसि, भविष्यथः, भविष्यथ, भविष्यामि, भविष्यावः, भविष्यामः,
तथा भवन्ति रूपाणि. अहं चिन्तयामि सर्वे दृष्टवन्तः इति अहं चिन्तयामि. अत्र अस्धातोः रूपाणि अपि एतादृशानि भवन्ति, भूधातोः रूपाणि अपि एतादृशानि एव, इत्युक्ते भूधातोः भविष्यत्कालरूपाणि अस्धातोः रूपाणि समानानि, तदेव अत्र अस्ति. अनन्तरम् अत्र क्रूधातोः रूपाणि पठतु भगिनि, पुनः द्वितीयं करपत्रं पश्यन्तु.
क्रूधातु लृट् लृट् लकार परस्मैपदम्, करिष्यति, करिष्यतः, करिष्यन्ति, करिष्यसि, करिष्यथः, करिष्यथ, करिष्यामि, करिष्यावः, करिष्यामः.
उत्तमम्. इत्युक्ते अत्र क्रूधातुः उभयपदी धातुः, तदर्थं क्रूधातोः रूपाणि, क्रूधातोः उभयपदिरूपम् इत्युक्ते परस्मैपदिरूपमस्ति, अपि च आत्मनेपदिरूपमपि अस्ति. क्रू गीताञ्जलि भगिनी वदतु, क्रूधातोः परस्मैपदिरूपं किम्?
क्रूधातु परस्मैपदे करिष्यति, करिष्यतः, करिष्यन्ति, करिष्यसि, करिष्यथः, करिष्यथ, करिष्यामि, करिष्यावः, करिष्यामः.
इत्युक्ते एतानि रूपाणि भविष्यत्कालरूपाणि, परन्तु क्रूधातोः परस्मैपदी लट्लकाररूपं करोति,
करोति,
करोति, करोति इति पदस्य नवरूपाणि सन्ति लट्लकारे, करोति इति पदं परस्मैपदी रूपम् इति कृत्वा अत्र भविष्यत्कालरूपाणि अपि नवरूपाणि सन्ति. तदेव भवती पठितवती. परन्तु अत्र क्रूधातुः अहं पूर्वमेव उक्तवती, क्रूधातुः उभयपदी धातुः, अतः आत्मनेपदीरूपम् अपि अस्ति. क्रूधातोः आत्मनेपदीरूपं किम्?
आत्मनेपदी
लट्लकाररूपम्.
लट्लकारे
उषा भगिनी वदतु.
करोति, कुरुतः,
कुर्वन्ति.
अत्र करोति, कुरुतः, कुर्वन्ति. परस्मैपदी, प्रथमपुरुष एकवचनं, द्विवचनं, बहुवचनरूपाणि. परन्तु क्रूधातुः उभयपदी, क्रूधातोः आत्मनेपदीरूपमस्ति. रूपं लट्लकारे कुरुते,
कुर्वाते,
कुर्वते.
उत्तमं. कुर्वते, कुरुते, कुर्वाते, कुर्वते, लट्लकाररूपाणि, आत्मनेपदीरूपाणि. आत्मनेपदीरूपाणां कृते अत्र कुरुते इति शब्दं स्वीकृत्य अत्र आत्मनेपदी लृट् रूपाणि एकवारं पठतु.
कुरुते, कुर्वाते, कुर्वते, कुरुषे, कुर्वाथे, कुरुध्वे, कुर्वे, कुर्वहे, कुर्महे.
कुर्महे. अनन्तरं लृट् रूपाणि, भविष्यत्कालरूपाणि पठतु. कुरुते शब्दस्य
भविष्यत् परस्मैपद भगिनी.
न भगिनी, कुरुते पश्यतु, अत्र सर्वे पश्यन्तु. क्रूधातोः परस्मैपदरूपं करोति. क्रूधातोः आत्मनेपदीरूपं कुरुते. इत्युक्ते अत्र क्रूधातुः उभयपदी धातुः, यथा पचति, पचते. अन्ते ते अस्ति चेत्, साधारणतया अन्ते ते अस्ति चेत् आत्मनेपदीरूपं भवति. अन्ते ति प्रत्ययः अस्ति चेत् तत्र तिप्रत्ययम् इति वदामः. तिप् अस्ति चेत् परस्मैपदी, ते अस्ति चेत् आत्मनेपदीरूपम्. परन्तु अत्र क्रूधातोः आत्मनेपदीरूपं कुरुते. कुरुते शब्दस्य भविष्यत्कालरूपाणि वदतु. तृतीयं करपत्रं पश्यतु.
करिष्यते, करिष्येते, करिष्यन्ते, करिष्यसे, करिष्येथे, करिष्यध्वे, करिष्ये, करिष्यावहे, करिष्यामहे.
उत्तमं, तावदेव. परन्तु अस्माकं कृते नूतनानि पदानि. साधारणतया करिष्ये इति पदं वयं जानीमः. साधारणतया पूजां कुर्मः चेत् करिष्ये इति पदम् आगच्छति तत्र पूजायाम्. अनन्तरम् अत्र चतुर्थं करपत्रमस्ति. चतुर्थं करपत्रम् अत्र पठतु भगिनी. संस्कृतभारत्या निर्मितं क्रियापदकोष्टकम् इति करपत्रमस्ति.
तदा किं किं भविष्यति?
अत्र भगिनी चतुर्थं करपत्रम्. उषा भगिनी भवती पश्यति वा?
आं भगिनि.
अत्र प्रथमं अत्र गच्छति इति तत्र पठतु. गच्छति इति रूपाणि, पदस्य रूपाणि वदतु.
कोष्टकं गोस् गच्छति, गच्छति, गच्छतु, गतवान्, गतवती, गमिष्यति, गत्वा, गन्तुम्.
अधुना वदतु गच्छति रूपं किं?
गच्छति
लट्लकारः. गच्छतु रूपं लोट्लकार. उत्तमं. गतवान्,
त्वा प्रत्यय.
क्त्वान्तप्रत्ययं, भूतकालरूपं.
पुंलिङ्ग. गतवती स्त्रीलिङ्ग, भूतकालरूपं. गमिष्यति भविष्यत्काल. गत्वा
न अत्र स्थगयतु भगिनी. केवलम् अस्माकं विषयः अस्ति भविष्यत्कालरूपाणि गच्छति इति पदस्य भविष्यत्कालरूपं गमिष्यति. तदर्थं भवती एव पठतु, परन्तु कथं पठति पठिष्यति तथा वदतु.
पठति पठिष्यति, पतति पतिष्यति, क्रीडति क्रीडिष्यति, वदति वदिष्यति, पिबति पाप्यति, लिखति लेखिष्यति, नयति नेष्यति, पश्यति द्रक्ष्यति, पृच्छति प्रक्ष्यति, भवति भविष्यति, मिलति मेलिष्यति, त्यजति त्यक्ष्यति, खादति खादिष्यति, जानाति ज्ञास्यति, करोति करिष्यति, शृणोति श्रोष्यति, ददाति दास्यति, प्रेष्यति प्रेषयिष्यति,
प्रेषयति भगिनी अत्र प्रेषयति.
ओ सारि, प्रेषयिष्यति प्रेषयिष्यति, प्रक्षालयति प्रक्षालयिष्यति, उत्तिष्ठति उत्थाप्यति, उपविशति उपवेक्ष्यति, स्थापयति स्थापयिष्यति, स्मरति स्मरिष्यति, आगच्छति आगमिष्यति, अस्ति भविष्यति, सूचयति सूचयिष्यति, इच्छति एषिष्यति, स्वीकरोति स्वीकरिष्यति स्वीकरिष्यति, गृह्णाति गृहिष्यति.
अत्र पश्यतु भगिनि, अत्र पश्यन्तु सर्वे रूपाणि, गृह्णाति गृह्णातु, गृहीतवान् गृहीतवती, परन्तु ग्रहीष्यति
ग्रहीष्यति.
अत्र भेदः अस्ति. कथमित्युक्ते गृह्णाति गृहीतवती तथा भवति, परन्तु ग्रहीष्यति ग्रहीष्यति ग्रहीतुं तथा भवति. अत्र भेदः अस्ति, गृह्णाति परन्तु ग्रहीष्यति ग्रहीतुं, तत्र केवलं रूपद्वयं भिन्नम् अस्ति. अत्र अवगच्छति वा भगिनि?
किमर्थं भेदः अस्ति भगिनि?
तत्र सूत्राणि सन्ति भगिनि, सूत्राणि सन्ति. तस्य कृते किमर्थं तथा वक्तव्यम् इत्यस्मिन् विषये सूत्राणि सन्ति. अत्र ग्रहधातुः अस्ति, धातुः ग्रह, ग्रहधातुतः तत्र ग्रहीष्यति ग्रहीतुम् इति रूपाणि आगच्छन्ति, परन्तु गृह्णाति गृह्णातु, गृहीतवान् गृहीतवती तथा भविष्यति. तत्र रूपं किञ्चित् भिन्नं, ग्रहीष्यति इति एव वक्तव्यं. वदतु.
रोदिति रोदिष्यति, शक्नोति शक्ष्यति शक्ष्यति, आनयति आनेष्यति, क्रीणाति क्रेष्यति, निन्दति निन्दिष्यति, आह्वयति आह्वस्यति
आह्वास्यति
आह्वास्यति.
उत्तमं, तावदेव. सर्वे अनन्तरं कक्षायाः अनन्तरं सर्वे एकवारं पुनः एतत् करपत्रं सम्यक् पठन्तु, सम्यक् अवधानं दत्वा पठन्तु. तर्वात अनन्तरं क्षम्यताम् अनन्तरम् उच्चारणं सम्यक् भवेत्. उत्तमम्. अनन्तरम् अत्र अहं भविष्यत्कालरूपाणां विषये अहम् एकं श्लोकं वदामि. अहं तत्र एकः श्लोकः अस्ति, रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वान् उदेष्यति हसिष्यति पङ्कजश्रीः, इत्थं विचिन्तयति कोशगते द्विरेफे, हा हन्त हन्त नलिनीन् गज उज्जहार इति एकः श्लोकः अस्ति. अत्र श्लोकः कः इत्युक्ते, एकः मधु एका मधुमक्षिका अस्ति, सा मधुमक्षिका किं चिन्तयति इत्युक्ते सः मधुमक्षिका कुत्र अस्ति, एकः नळिनी, नळिनीम् इत्युक्ते अत्र पद्मम् इत्युक्ते अत्र किं वदामः सरसि लोटस् तस्मिन् मध्ये अस्ति, कोशगते द्विरेफे किं चिन्तयति, रात्रिः गमिष्यति, सुप्रभातं भविष्यति, रविः उदेष्यति, अपि च पङ्कजश्री हसिष्यति, तदा अहं बहिः आगत्य बहिः गन्तुं शक्नोमि इति सा मधुमक्षिका चिन्तयित्वा तत्रैव तिष्ठति. अनन्तरं किम् अभवत् इत्युक्ते एकः गजः तत्र आगच्छति, तं नलिनीम् उज्जहार इत्युक्ते उज्जहार इत्युक्ते उत्पाटयति. दट् वन् एलिफेण्ट् केम् अण्ड् इट् पुल्ड् औट् द होल् लोटस् प्लाण्ट् तथा अयं श्लोकः प्रसिद्धश्लोकः. रात्रिर्गमिष्यति, भविष्यति सुप्रभातं, भास्वान् उदेष्यति, हसिष्यति पङ्कजश्रीः, इत्थं विचिन्तयति कोशगते द्विरेफे, हा हन्त हन्त नलिनीं गज उज्जहार इति श्लोकः अस्ति. अनन्तरम् अत्र सर्वे एकवारम् अभ्यासपुस्तकं प्रति गच्छन्तु, एकचत्वारिंशत्तमे पुटे. रघुपतिमहोदय भवान् करोतु, अत्र अभ्यासं करोतु. 12.1 भागे
एकनिमिषं भगिनि. भविष्यत्काल सुब्रह्मण्य तत्र सुब्रह्मण्यः श्वः श्वः विद्यालयं न गमिष्यति, सः चिकित्सालयं गमिष्यति, तत्र वैद्यं द्रक्ष्यति, तेन सह सम्भाषणं करिष्यति, स्वस्य अनारोग्यं निवेदयिष्यति, सः श्वः न क्रीडिष्यति, गृहे उपविश्य पाठं पठिष्यति. सुब्रह्मण्यः ओके
वदतु महोदय
अग्रे
अत्र किम् अस्ति इति वदतु.
भविष्यत्कालरूपाणि सन्ति अत्र, गमिष्यति, द्रक्ष्यति, करिष्यति, निवेदयिष्यति, क्रीडिष्यति, पाठं पठिष्यति इति अस्ति.
इत्युक्ते अत्र सुब्रह्मण्यः श्वः किं किं करिष्यति इति तत्र लिखितमस्ति. अत्र भवान् श्वः किं किं करिष्यति इति अत्र लिखतु, कानिचन वाक्यानि वदतु महोदय.
अहं श्वः मैसूर् गमिष्यामि. ओके, भवान् श्वः किं किं करिष्यति इति अत्र लिखतु. अहं श्वः मैसूर् गमिष्यामि, मैसूरुतः बेङ्गलूर् गमिष्यामि, तत्र अहं मम भ्रातुः गृहे गृहं गमिष्यामि. मङ्गलूरुतः बेङ्गलूरुतः पुनः परापराश्वः मङ्गलूरुनगरं गमिष्यामि, आगमिष्यामि.
तावदेव इत्युक्ते सर्वे गृहपाठरूपेण एतत् अभ्यासं कुर्वन्तु, गृहपाठरूपेण कुर्वन्तु. अग्रिमे पुटे किमस्ति महोदय, अत्र विशेषरूपाणि दत्तानि, तदपि पठतु महोदय.
ओके, पिबति विशेषरूपाणि अत्र लट्लकारपि भविष्यत्कालरूपाणि सन्ति. पिबति, पास्यति, ददाति, दास्यति, जानाति, ज्ञास्यति, शृणोति श्रोष्यति लिखति लेखिष्यति मिलति मेलिष्यति पृच्छति प्रक्षति त्यजति त्यक्ष्यति शक्नोति शक्ष्यति उपविशति उपवेक्ष्यति उत्तिष्ठति उत्थास्यति गृह्णाति गृहीष्यति.
उत्तमम्. अत्र विशेषरूपाणि दत्तानि, किञ्चित् नूतनानि, परन्तु तेषां कृते बहूनि सूत्राणि सन्ति. अत्र पश्यन्तु, पिबति इति पदस्य भविष्यत्कालरूपं पास्यति. किमर्थं तथा इत्युक्ते, अत्र धातुः अस्ति पा धातुः, दीर्घ आकारान्तधातुः पा धातुतः पिबति रूपम् आगच्छति, परन्तु भविष्यत्कालरूपं पास्यति. तथा एव ददति धातुः अस्ति दा धातुः, दीर्घ आकारान्तधातुः. अपि च जानाति इति पदस्य रूपं ज्ञा धातुः, तस्य धातोः मूलरूपं, धातोः रूपं, लौकिकधातोः रूपं ज्ञा, ज्ञा धातुतः जानाति भविष्यत्कालरूपं ज्ञास्यति. अपि च शृणोति धातुः अस्ति श्रु, श्रु धातुः. लिखति धातुः लिख् धातुः. मिलति मिल्. अपि च प्रच्छ, प्रच्छ धातुतः पृच्छति रूपमागच्छति, धातुः प्रच्छ. भविष्यत्कालरूपं प्रक्ष्यति. अनन्तरं त्यज् धातुतः त्यजति त्यक्ष्यति रूपाणि, शक् धातुतः शक्नोति. अत्र उपविशति इति पदमस्ति, उप उपसर्गः, विश् धातुः इत्युक्ते उप उपसर्गपूर्वकः विश् धातुः. किं भवति? उपविशति. परन्तु भविष्यत्कालरूपम् उपवेक्ष्यति, तत्र गुणकार्यम् अभवत् उपवेक्ष्यति. तथा एव अत्रापि लिखति लेखिष्यति मिलति मेलिष्यति तथा भवति. गृह्णाति इति पदस्य तत्र धातुः अस्ति ग्रह, ग्रह धातुतः गृह्णाति, परन्तु भविष्यत्कालरूपं ग्रहीष्यति इति भवति. उत्तमम्. अत्र यदि भवन्तः ज्ञातुमिच्छन्ति चेत् एकां कथां पठामः, नो चेत् अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा पठामः. भवन्तः किं चिन्तयन्ति? अत्र एका कथा अस्ति, कथा नष्टः पिष्टघटः, परन्तु तत्र कथा भवन्तः जानन्ति चेत् केवलं व्याकरणविषयान् परिशीलयामः. अपि च तदा किं किं भविष्यति इति एका अन्या कथा अस्ति, गीतासोपानात् उद्धृता कथा अस्ति. गीतासोपानं पुस्तकात् उद्धृतः अस्ति. यदि भवन्तः इच्छन्ति चेत् शीघ्रं कुर्मः, नो चेत् विरमाम. किं चिन्तयन्ति?
पठितुं चिन्तयन्ति?
अस्तु,
भगिनि
पठितुं
पठितुमिच्छति वा?
आं भगिनि.
उत्तमम्. वयं नष्टः पिष्टघटः इति कथां पठामः. भवन्तः जानन्ति चेत् अपि अत्र व्याकरणविषयान् परिशीलयामः. केवलं कथायाः अवगमनं एकः विषयः, व्याकरण अंशानां परिशीलनमपि भवेत् अत्र. वंशीसुधा भगिनी, भवती पठतु अत्र प्रथमपरिच्छेदं पठतु.
आं महोदय. नष्टः पिष्टघटः. कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म. सः भिक्षाटनेन जीवनं करोति स्म. सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकादृष्ट्या घटमेव पश्यति स्म.
अत्र नष्टः रूपं किं भगिनि वदतु?
नष्टः इति प्रथमा विभक्तौ अस्ति भगिनि. नष्टः नष्टः षष्टि विभक्तौ अस्ति भगिनि.
न भगिनि, अत्र पश्यन्तु, नष्टः इति क्षान्तरूपं, क्षाप्रत्ययान्तरूपं, नष् धातोः क्षान्तरूपं नष्टः. नष् धातुतः नष् धातुतः नष्टः, विष् धातुतः विष्टः. वयं जानीमः विष्टः प्रविश् प्रविशति, तत्र प्रविष्टवान् प्रविष्टवती इति वयं पठितवन्तः. तथा एव अत्र नष्टवान्, नष् धातोः क्षान्तरूपं नष्टः, क्तवत्पन्तरूपं नष्टवान् नष्टवती तथा भवति. अत्र नष्टः इति प्रथमाविभक्तिरूपमेव, परन्तु क्तान्तरूपं, क्ताप्रत्ययान्तरूपं, नष् धातोः रूपं. पिष्टघटः, पिष्टघटः तत्र समासः अस्ति. अहं चिन्तयामि कर्मधारे समासः पिष्टघटः. अत्र अहं सम्यक् न जानामि, परन्तु त्यजतु तत्र. अनन्तरम् अत्र कस्मिंश्चित् नगरे विभक्तिः का?
नगरे, नगरे इत्युक्ते सप्तमी विभक्तौ अस्ति. कस्मिंश्चित् कस्मिंश्चित् इति विभक्ति किं
सप्तमी विभक्ति
सप्तमी एव
कस्मिन् कस्मिंश्चित्
तस्मिन् तस्मिन् आमां महोदय.
उत्तमम्. इत्युक्ते अत्र कस्मिन् कस्मिंश्चित् कस्मिंश्चित् इति अस्ति. तत्रापि कस्मिन् कः शब्दस्य सप्तमी रूपं किम्?
मकारान्तपुंलिङ्गः किं शब्दः?
भगिनी अत्र सप्तमी रूपं सप्त किं शब्दस्य अत्र मकारान्तशब्दस्य
कस्मिन्
वा अथवा अत्र पश्यन्तु नपुंसकलिङ्गे किं वदामः, पुंलिङ्गे कः इति वक्तव्यं, कः शब्दस्य अथवा किं शब्दस्य सप्तमी रूपं किं कस्मिन्
कस्मिन्
अत्र पश्यतु कस्मिन् योगः चित्. अत्र सन्धिः अस्ति सत्त्वसन्धिः, सत्त्वसन्धिः इति वदामः. अत्र कस्मिन् योगः नकारस्य स्थाने अत्र अनुस्वारादेशः भवति, अपि च सकारस्य स्थाने तालव्यषकारः आगच्छति. तत्र सन्धिः अस्ति सत्त्वसन्धिः, परन्तु तत्र सूत्रमस्ति नश्चर्यप्रशान् इति सूत्रम्. अत्र कस्मिंश्चित् नगरे सप्तमी. अनन्तरं कश्चन दरिद्रः ब्राह्मणः वसति स्म, वयं जानीमः अत्र अहं पठितवती, अत्र संस्कृतभाषायाम् एकं क्रियापदमस्ति दरिद्राति. दरिद्रा दरिद्रा इति एकः धातुः, अनेकासि धातुः इति वदामः. वयं व्याकरणवर्गे वयं जानीमः अत्र एकासि धातवः अनेकासि धातवः. एकासि धातवः इत्युक्ते केवलं धातौ एकः एव अचुवर्णः अस्ति. परन्तु दरिद्राति इति क्रियापदमस्ति, दरिद्रा धातुः अस्ति. दरिद्रा धातौ धातौ बहवः अचुवर्णाः सन्ति
सन्ति
इत्युक्ते तदर्थमेव अनेकासि धातुः इति वदामः. परन्तु अत्र अत्र पदमस्ति दरिद्रः ब्राह्मणः वसति स्म. उत्तमम्. अनन्तरम् अत्र दरिद्रः इत्युक्ते अन्यं पर्यायवाचकपदानि वदतु. दरिद्रः इति
इदानीं न स्मरामि
निर्धनः. अस्तु, अत्र शोभा भगिनी वदतु.
निर्धनः.
उत्तमम्. अन्ये अन्यानि पदानि कोऽपि? धनहीनः, निर्धनः, नो चेत् धनवर्जितः. निर्द्रव्यः इत्युक्ते अपि च अत्र एकं पदमस्ति ब्राह्मणः इति पदमस्ति. ब्राह्मणः इति पदस्य अर्थः कः?
ब्रह्मा इति जानाति ब्राह्मणः.
ब्रह्मचर्यं चरति, ब्रह्म मार्गे चरति सः ब्राह्मणः.
उत्तमं, तावदेव. इत्युक्ते अत्र यस्य यस्य मनः सदा ब्रह्मणि चरति. अत्र ब्रह्मणि ब्रह्मणि इति पदं सप्तमी विभक्त्यन्तरूपम्. यस्य मनः सदा ब्रह्मणि चरति स एव ब्राह्मणः, अथवा यस्य पार्श्वे ब्रह्मज्ञानमस्ति स एव ब्राह्मणः. अत्र ब्रह्म इति पदात् ब्राह्मण इति रूपम् आगच्छति. इत्युक्ते अहं चिन्तयामि तद्धितप्रत्ययान्तरूपम्. अनन्तरम् अत्र वंशीसुधा भगिनी भवती वदतु, सः कथं जीवनं यापयति स्म?
भिक्षाटनेन जीवनं करोति.
भिक्षाटनेन जीवनं करोति स्म. कदाचित् कदाचित् सः पिष्टेन पूर्णं एकं घटं प्राप्तवान्. इदानीं पर्यन्तं वयं कश्चित् कस्मिंश्चित् इति एव वयं ज्ञातवन्तः, परन्तु अत्र कदाचित् कदाचित् इति पदं दत्तमस्ति. कदाचित् इत्युक्ते किं?
कदा योगः चित् इति अनिश्चितार्थं कालम् इति सूचयति.
उत्तमम्. इत्युक्ते तथा कदा अभवत् इति वयं न जानीमः. इत्युक्ते कदा अथवा कति इति पदानां पदेन सह अपि वयं चित् पदस्य योजनं कुर्मः. इत्युक्ते कदा योगः चित् कदाचित् तथा एव कति योगः चित् कतिचित् कतिचन अपि कतिचन अपि अस्ति, तथा एव कतिचित् इत्यपि अस्ति. अनन्तरम् अत्र कदाचित् सः पिष्टेन पूर्णं एकं घटं प्राप्तवान्. किं प्राप्तवान्?
एकं पिष्टेन घटं प्राप्तवान्. एक पूर्णं घटं प्राप्तवान्. पिष्टम् अस्ति घटे इति
घटे पिष्टमस्ति. इत्युक्ते पिष्टेन पूर्णं घटं प्राप्तवान्. अत्र प्राप्तवान् वयं जानीमः, प्राप्नोति अथवा आप्नोति इति. प्रथमतया आप् इति धातुः अस्ति. आप् धातोः रूपं लट् रूपम् आप्नोति. प्रा उपसर्गपूर्वकः
आप्
धातुः प्राप्नोति. प्राप्नोति इति पदस्य क्तान्तरूपं प्राप्तवान् प्राप्तवती. परन्तु अत्र एकः भेदः अस्ति. आप्नोति इति सकर्मकं, प्राप्नोति सकर्मकं, परन्तु समाप्नोति वयं जानीमः समाप्तः समाप्तम् अकर्मकपदं. प्राप्नोति सकर्मकं, समाप्नोति समाप्त, तादृशरूपाणि अकर्मकरूपाणि. अनन्तरम् अत्र धन्यवादः भगिनि, किञ्चित् ध्वनिः अस्ति तदर्थम्. अनन्तरम् अत्र रघुपताचार्यमहोदय भवान् वदतु, अत्र नागदन्तः इति दत्तमस्ति. नागदन्तः इत्युक्ते
हुक् अस्ति सम्थिङ्ग्
हुक् एव. इत्युक्ते अत्र किं दत्तमस्ति शब्दकोशे इत्युक्ते पेग् इन् द वाल् टु हेङ्ग् द थिङ्ग्स् अपान् इत्युक्ते अत्र अन्यं पदमस्ति कीलः. हुक् इत्युक्ते कीलः. परन्तु संस्कृतभाषायां कीलयति कीलयति इति क्रियापदमपि अस्ति, कीलयति. सः ब्राह्मणः घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म. अत्र अवलम्ब्य रूपं किं महोदय?
लेबन्तरूपं
अवलम्ब्य. लट्लकाररूपं, लट्लकाररूपं किं भवति?
लट्लकार अवलम्ब्य, एकनिमिषम् उपविश्य अवलम्ब्य, अवलम्ब्य, अवलम्बनम्, अवलम्बनम्
लभते,
अवलम्ब, अवलम्बन, अवलम्ब.
अत्र 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 क्रियापदमस्ति, क्रियापदमस्ति अवलम्बते, आत्मनेपदरूपम् अवलम्बते, अवलम्बते, लम्बते अव इति उपसर्गः, अवलम्बते. वयं जानीमः आलम्बनम्, अवलम्बनम्. आलम्बनम् इत्युक्ते सपोर्ट्, आलम्बनम् अत्र. परन्तु अत्र ल्यबन्तरूपमस्ति अवलम्ब्य, अवलम्बते. सः नागदन्ते अवलम्ब्य तस्य अधः उपविश्य. वयं जानीमः अधः इति पदं योजयितुमिच्छामश्चेत् तस्मात् पूर्वं षष्ठीविभक्तेः रूपम् आवश्यकम्. तस्य अधः, कस्य अधः?
नागदन्तस्य अधः,
नागदन्तस्य
अधः,
नागदन्तस्य अधः उपविश्य एकदृष्ट्या. विभक्तिः का महोदय?
एकदृष्ट्या, एकदृष्ट्या तृतीया विभक्ति.
लिङ्गं किम्?
एकदृष्टि
लिङ्गं किम्?
दृष्ट्या स्त्रीलिङ्ग अस्ति, स्त्रीलिङ्ग.
इत्युक्ते अत्र प्रथमाविभक्तिरूपं दृष्टिः,
दृष्टिः, दृष्टिः, दृष्ट्या,
दृष्टिः, दृष्ट्या, एकदृष्ट्या सः घटम् एव पश्यति स्म. अत्र वयं स्म योजयित्वा भूतकालार्थम् आगच्छति, स्म योजनेन पश्यति स्म, गच्छति स्म इति वयं जानीमः. अनन्तरम् अत्र द्वितीयपरिच्छेदं पठतु महोदय. अत्र
एकदा रात्रौ सः चिन्तितवान्, यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्, तदा अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेष्यामि, कालान्तरे तेन अजसमूहः एव भविष्यति, अनन्तरम् अजसमूहं विक्रीय धेनूः क्रेष्यामि, अनन्तरं ताः विक्रीय महिषीः, ताः विक्रीय अश्वान् च क्रेष्यामि, तानपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि, बृहत् गृहं निर्मापयिष्यामि. तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति, अनन्तरं मम पुत्रः जनिष्यते, देवशर्मा इति तस्य नामकरणं करिष्यामि. यदा सः
अत्र स्थगयतु, किमर्थं चेत् इदानीं पर्यन्तं वयं बहूनि पदानि लृट्रकाररूपाणि, भविष्यत्कालरूपाणि अत्र अस्यां कथायां सन्ति, तदर्थमेव वयम् अस्यां कथायां पठामः, कथां पठामः. अत्र किं किम् अस्ति इति एकवारं पश्येम. एकदा रात्रौ सः चिन्तितवान्, चिन्तितवान् इति पदस्य लट् रूपं किम्?
चिन्तयति,
चिन्तयति. रात्रौ, रात्रौ इति पदस्य विभक्तिः का अन्येषां कृते केवलं
सप्तमी विभक्ति रात्रौ,
रात्रौ. अत्र एकं नूतनं पदमस्ति दुर्भिक्षः, दुर्भिक्षः इत्युक्ते किम्?
दुर्भिक्षा बरकाल स्वामि, दुर्भिक्षः इत्युक्ते पर्यायशब्द, अनावृष्टिः.
इत्युक्ते
इत्युक्ते
अत्र अनावृष्टिः इत्युक्ते वृष्टिः नास्ति, परन्तु दुर्भिक्षः इत्युक्ते आहारस्य अभावः. दुर्भिक्षः इत्युक्ते आहारस्य अभावः. अनन्तरम् अत्र भवेत् इति पदमस्ति. भवेत् भवति शब्दस्य रूपमेव, परन्तु रूपं लकारः कः?
भवेत्
भवेत्
न स्मरामि. भवेत् भवेत् एक्स्पेक्टेशन् अस्ति.
अत्र पश्यन्तु भवेत् इति भूधातोः विधिलिङ्गलकाररूपं, परन्तु विधिलिङ्गलकारः तस्य प्रयोजनद्वयमस्ति. विधिलिङ्गलकारस्य विध्यर्थे अथवा सम्भावनार्थे तथा भवितुं शक्नोति इति सम्भावना एक्स्पेक्टेशन् अस्ति चेत् तदापि वयं विधिलिङ्गलकारस्य उपयोगं कुर्मः. अत्र भवेत् इति पदम् अत्र अस्यां कथायां विधिलिङ्गलकारः तस्य उपयोगः सम्भावनार्थे अस्ति, न तु विध्यर्थे. विधि इत्युक्ते कर्तव्यं, परन्तु अत्र विधिलिङ्गलकारस्य उपयोगं उपयोगः केवलं सम्भावनार्थे अस्ति. सः ब्राह्मणः चिन्तितवान् कथं यदि देशे दुर्भिक्षः भवेत् चेत् तदा एतस्य घटस्य पिष्ठेन पूर्णं घटस्य मूल्यं शतरूप्यकाणि भवेत्. सम्भावना अस्ति, न तु विधिः. तदर्थमेव अत्र भवेत् इति पदं सम्भावनार्थे दत्तमस्ति. तत्र रूपाणि रूपाणि कथं भवन्ति इत्युक्ते भवेत्, भवेताम्, भवेयुः, भवेः, भवेतं, भवेत्, भवेयं, भवेव, भवेम तथा भवन्ति विधिलिङ्गलकाररूपाणि. अनन्तरम् अत्र विक्रीय इति पदमस्ति महोदय, तस् रूपं किं?
लेबन्तरूपमस्ति, उपसर्गः अस्ति विक्रीय.
उत्तमं. अत्र लट्लकाररूपाणि कानि?
विक्रीयते.
अत्र यथा भवान् अत्र यथा भवान् उक्तवान् वि इति उपसर्गः, अत्र धातुः अत्र क्रियापदमस्ति क्रीणाति.
क्रीणाति
क्रीणाति क्रीणाति. अत्र धातुः क्री धातुतः मूल उपदेशावस्थायां डुक्री अस्ति, परन्तु लौकिकधातुं स्वीकुर्मः. क्री धातुतः क्रीणाति क्रीणीते. उभयपदी धातुः तथा उभयपदी धातुः अस्ति क्रीणाति क्रीणीति. तद् यथा जानाति जानीते तथा एव अत्रापि क्रीणाति क्रीणीते. अत्र ल्यबन्तरूपं दत्तमस्ति. अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेष्यामि. क्रेष्यामि इति पदस्य रूपं किं महोदय?
लट्लकारीणामि.
क्रीणामि. वयं जानीमः अजद्वयम् अजद्वयम् इति दत्तमस्ति. दश संख्यापर्यन्तं वयं जानीमश्चेत् उत्तमं भवति. इत्युक्ते कथं? द्वयं त्रयं चतुष्टयं तथा ज्ञातव्यम्. अप् टु टेन् वी नीड् टु नो हौ टु से नम्बर्स् लैक् दाट्. अजद्वयम्, अजत्रयम्, अजचतुष्टयं तदनन्तरमपि वक्तव्यं तथा अस्माभिः ज्ञातव्यं. परन्तु अत्र अजः इति पदमस्ति. अजः इत्युक्ते कः महोदय?
अज अज इत्युक्ते गोटो. वृष गोटो
अजः इत्युक्ते गोट् अजः इति इत्यस्मिन् अजः इति पदं तस्य अर्थः अन्य अर्थः अपि अस्ति कः
वदति अजः इत्युक्ते उत्तमम्
इत्युक्ते अजः इत्युक्ते वदतु भगिनि भूमा भगिनि
जननं नास्ति अजः
उत्तमम् अजः इत्युक्ते ब्रह्मन् ब्रह्म इत्युक्ते यस्य जन्म नास्ति सः एव अजः परन्तु अत्र अजः इत्युक्ते गोट् अपि च अजः इत्युक्ते ब्रह्म द्वयोः कृते एकमेव पदं दत्तमस्ति तथा किमर्थम् अहमपि न
भगवान् केनाट् बि द्वयं
तथा एव अत्र वयं जानीमः
भगिनी भगिनी अजः इति ब्रह्मन् इति वदति अजः इति विशेषणम् अस्ति तत्कारणेन ब्रह्मन् इति अहं चिन्तयामि
अहं किं वदामि इत्युक्ते अजः इत्युक्ते गोट् इति अर्थः अस्ति परन्तु अजः इत्युक्ते ब्रह्म यस्य जन्म नास्ति स एव अजः
सर्वेश्वरसिद्धिः विष्णुसहस्रनामः अस्ति
तथा एव परन्तु अहम् एकं जानामि द्विजः इति जानामि द्विजः इत्युक्ते पक्षी अपि च ब्राह्मणः द्विजः इत्युक्ते ब्राह्मणः किमर्थम् इत्युक्ते अनन्तरं ट्वैस् बाण्ड् उत्तमं तथा एव पक्षी अपि पूर्वं अण्डरूपेण भवति तदनन्तरं पक्षिः तस्मात् आगमिष्यति तदर्थं द्विजः इत्युक्ते पक्षी अथवा ब्राह्मणः परन्तु अत्र अजः इत्युक्ते गोट् अपि च अहं न जानामि तस्मिन् विषये उत्तमम् अनन्तरं कालान्तरेण सः अजसमूहः एव भविष्यति इति दत्तमस्ति तेन इत्युक्ते केन
अजद्वयेन
अजद्वयेन
अजद्वयेन एव
अजद्वयेन अनन्तरम् अजसमूहं विक्रीय धेनुः प्रेषयामि अत्र धेनुः इति पदस्य विभक्तिः का
धेनुः इति प्रथमा विभक्ति धेनुः सारी द्वितीया धेनुः द्वितीया विभक्ति
द्वितीयाविभक्ति प्रथमाविभक्ति एकवचनरूपं किं महोदय
धेनुः इति धेनुः धेनवः
इत्युक्ते
धेनवः
प्रथमाविभक्ति बहुवचनं धेनवः परन्तु अत्र द्वितीयाविभक्ति बहुवचनं दत्तमस्ति सः किं कर्तुमिच्छति अजसमूहं विक्रीय धेनुः क्रेष्यामि किं क्रेष्यति धेनुः क्रेष्यति तदनन्तरं सः ताः विक्रीय इत्युक्ते धेनुः विक्रीय
महोदय
वदतु भगिनि
धेनु विसर्ग नास्ति द्विवचनम्
धेनुः धेनुः धेनवः
आं भगिनि
द्वितीयवचन
अभवत्
वदतु भगिनि किं वक्तुमिच्छति
विसर्ग किम् अर्थम् अभवत्
अत्र प्रथमाविभक्ति गुरुशब्दः पुंलिङ्गशब्दः परन्तु धेनुशब्दः स्त्रीलिङ्गशब्दः
धेनुः द्वितीयविभक्तौ बहुवचने धेनुः अस्ति
द्वितीयविभक्ति बहुवचने आम् आं भगिनी
गीताञ्जलि भगिनी द्वितीयविभक्तिरूपाणि वदतु धेनुशब्दस्य. उत्तमं, तावदेव. इत्युक्ते अत्र द्वितीयविभक्ति बहुवचनं दत्तमस्ति. भवती एव वदतु. धन्यवादः महोदय, अत्र शीघ्रं समापयामः. अत्र भवती वदतु भगिनी अनन्तरं. ताः विक्रीय महिषीः, महिषीः इत्युक्ते किम्?
महिषीः विशेषणं
न अत्र वदतु. विशेषणं,
विशेषणं स्त्रीलिङ्ग बहुवचन.
इत्युक्ते अत्र ताः धेनुः विक्रीय महिषीः क्रेष्यामि.
आं भगिनि.
अपि च ताः महिषीः विक्रीय अश्वान् च क्रेष्यामि. अत्र इत्युक्ते धेनुः, महिषीः, अश्वान् एतानि पदानि द्वितीयाविभक्ति बहुवचने, बहुवचनान्तानि. अनन्तरम् अत्र तान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि. यथेष्टम् इति पदमस्ति अत्र, यथेष्टम् अत्र सन्धिः अस्ति. वदतु भगिनि.
यथ योगः इष्टम्.
सन्धिः का, कः?
गुणसन्धिः.
उत्तमं. यथा इष्ट, यथा योगः इष्टं, यथेष्टम्. अत्र पश्यन्तु, वयं जानीमः इच्छति इति क्रियापदं जानीमः. इच्छति इति क्रियापदात् इच्छा इति रूपम् आगच्छति, परन्तु क्तान्तरूपं, क्तान्तरूपम् इष्ट. इच्छति इच्छति इति क्रियापदम्, इष्ट इति क्तान्तरूपं, परन्तु क्तवत्सन्तरूपम् इष्टवान्, इष्टवती. परन्तु अत्र पदमस्ति यथा योगः इष्टं, यथेष्टम्. वयं जानीमः यथेच्छया, तदपि अस्ति यथेच्छया इत्युक्ते यथा इष्टं. यथेच्छया इत्युक्ते अत्र यथेच्छया इत्युक्ते किं भगिनि? अत्र यथेष्टम् इत्युक्ते
अतः
अत्र वाक्यं दृष्ट्वा वदतु. यथेष्टं धनं सम्पादयिष्यामि. अधिकम्
अतः सः चिन्तयामि, अतः अहं धनं प्राप्नोमि.
प्राप्नोमि, अधिकं धनं प्राप्नोमि. उत्तमं. सम्पादयिष्यामि इति पदस्य लट्रूपं किम्?
सम्पादयति.
उत्तमं. सम्पादयति, सम्पादयति, सम्पादयामि इति दत्तमस्ति. बृहत् गृहं निर्मापयिष्यामि. अत्र गृहमस्ति अतः बृहत्. यदि ग्रन्थः अस्ति चेत् किं वदामः पुंलिङ्गे? बृहत् शब्दस्य पुंलिङ्गरूपं किम्? भूमा भगिनी वदतु.
बहूनि,
बृहान्
बृहान्
बृहान् ग्रन्थः, बृहान् ग्रन्थः. तथा एव स्त्रीलिङ्गे किं भवति?
बृहति,
बृहति.
उत्तमं. बृहती इति वदामः. बृहत् गृहं, बृहान् ग्रन्थः, बृहती वाटिका, अर् किमपि बृहती इति स्त्रीलिङ्गे आगच्छति. अनन्तरं श्रोमः भगिनी भवती वदतु. अत्र निर्मापयिष्यामि इति पदमस्ति. तत्र निर्मापयिष्यामि लट्लकाररूपं किं भवितुं शक्नोति?
निर्मापयिष्यामि, निर्मापयति, निर्मापयामि.
उत्तमम्. अत्र पश्यन्तु सर्वे, अत्र निर् इति उपसर्गः, धातुः अस्ति मा धातुः, मा धातुतः माति माति इति क्रियापदम् आगच्छति. मा धातुतः एव मापनम् इति पदमपि आगच्छति. मा दीर्घ आकारान्तधातुः, यथा दा दा ददाति, मा माति. परन्तु अत्र निर् उपसर्गपूर्वकः मा धातु निर्माति. परन्तु निर्मापयति किमर्थम् इत्युक्ते अत्र पुगागमः भवति, पकारः आगच्छति. किमर्थं निजन्तधातुः, निजन्त अन्यम् अन्यं कारयति. प्रेरणार्थे प्रेरणार्थे णिच् इति वदामः, प्रेरणार्थे णिच् इति वदामश्चेत् तत्र निर्माति इति पदस्य निजन्तरूपं निर्मापयति, निर्मापयति, निर्मापयामि. तत्र पुगागमः भवति. तत्र एकं सूत्रमस्ति, अर्ति ह्री विलि क्नुयीक्ष्मायातां पुङ्नौ इति सूत्रेण निजन्तधातूनां विषये तत्र आकारान्तधातुः आकारान्तधातुः अस्ति चेत् पुगागमः भवेत् इति तत्र एकः नियमः. अत्र निर् उपसर्गपूर्वकः मा धातुः निर्माति. परन्तु अत्र पदं निर्मापयति, भविष्यत्कालरूपं निर्मापयिष्यति. उत्तमम्. अनन्तरं पठतु भगिनी, अत्र ब्राह्मणः गृहं निर्मापयिष्यति. अनन्तरं रूपवतीं कन्यां मह्यं दास्यति. मह्यं पदं वदतु, मह्यम् इति पदस्य रूपं किम्?
मह्यं चतुर्थीविभक्ति.
उत्तमं. दास्यति लट्लकाररूपं?
ददाति.
उत्तमं, जानाति एव. रूपवती, रूप वयं जानीमः, रूपवती, गुणवती, बलवती, ज्ञानवती, एतानि पदानि मतुप् प्रत्ययान्तरूपाणि इति वदामः. तत्र यस्य यस्मिन् वा, अत्र बहुव्रीहिसमासः भवति, मतुप् प्रत्ययम् अत्र रूपवती, गुणवती. परन्तु यस्मिन् यस्यां बुद्धिः अस्ति अथवा शक्तिः अस्ति चेत् शक्तिमती, बुद्धिमती. पदं पदम् इकारान्तपदमस्ति चेत् मति मान् तथा भवति. पदम् अकारान्तमस्ति चेत् वति वान् तथा आगच्छति. तत्रापि सूत्रमस्ति. रूपं यस्यां रूपमस्ति सा रूपवती, गुणमस्ति गुणवती, गुण तत्र अकारः अस्ति, रूप अकारः अस्ति, ज्ञान तत्रापि अकारः अस्ति, तदर्थं ज्ञानवती, ज्ञानवान्, रूपवती, रूपवान्, गुणवती, गुणवान्. परन्तु यस्मिन् बुद्धिः अस्ति सः बुद्धिमान्, सा बुद्धिमती. तथा एव
मकारः भवति, वकारः
तथा भवति अत्र. अनन्तरम् अत्र रूपवती स्वकन्यां मह्यं दास्यति. अनन्तरं पठतु.
अनन्तरं मम पुत्रः जनिष्यते, देवशर्मा इति तस्य नामकरणं करिष्यामि. यदा सः एकः प्रश्नः अत्र भगिनी, किमर्थं जनिष्यते आत्मनेपदी उपयुज्य उपयोगं कृतवन्तः किमपि किं जनिष्यति
वदामि अत्र. अहं वदामि अत्र पूर्वस्मिन् वाक्ये अत्र मह्यम् इति अस्ति, मह्यं चतुर्थी विभक्ति भवती उक्तवती एव. साधारणतया सम्प्रदाने चतुर्थी इति वदामः, सम्प्रदाने चतुर्थी. परन्तु अत्र भवती यद् पृष्टवती अत्र पश्यन्तु, अत्र जनिष्यते इति रूपमस्ति, अत्र धातुः अस्ति जन्, जन् धातुः, जन् धातुतः जायते आत्मनेपदी, न तु परस्मैपदी. जन् धातु जन् धातोः आत्मनेपदिरूपमस्ति जायते इति रूपं. परन्तु जन् धातुः अकर्मकधातुः, केवलं किं वदामः पुत्रः जायते पुत्रिका पुत्री जायते इति अस्ति. जायते इति लट्लकाररूपम् अत्र लृट् दत्तमस्ति, भविष्यत्कालरूपं दत्तमस्ति. जनिष्यते धातुः जन् धातुः, अतः धातुतः एव रूपाणि आगच्छन्ति. धातुः जन् भविष्यत्कालरूपं जनिष्यते, परन्तु लट्लकाररूपं जायते.
जायते
अनन्तरं देवशर्मा इति पठतु भगिनि.
देवशर्मा इति तस्य नामकरणं करिष्यामि. यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहं अश्वशालायां पुस्तकं पठिष्यामि. तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति. तदा तं बालं गृहीतुं तस्य मातरम् आज्ञापयिष्यामि. यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति.
अग्रे पठतु.
हा, एवं चिन्तयन् सः पादप्रहारं कृतवान् एव. पिष्टेन पूर्णः घटः पतितः भग्नः च. अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः, सा एव पाण्डुरः शेते देवशर्मा पिता यथा.
अत्र भवन्तः सर्वे अवगतवन्तः एव अत्र कथा. अत्र पश्यन्तु, देवशर्मा इति पदमस्ति. अत्र शर्मा इति पदमपि नकारान्तपदं शर्मन्. वयं जानीमः, अत्र साधारणतया वयं शृणुमः शर्मा, विष्णुशर्मा, तथा शर्मा इति पदं नकारान्तपदं. शर्मा इत्युक्ते यः सर्वदा आनन्दं प्राप्नोति स एव शर्मा. सर्वदा प्रसन्नः. शर्मा इति पदस्य उत्तमः अर्थः अस्ति तत्र. अत्र नामकरणं कृतवान्, तदनन्तरं सः जानुभ्यां चलितुं समर्थः भविष्यति. अत्र जानुभ्यां विभक्तिः का भगिनि?
जानु नीस् जानुभ्यां त्रुदं
तृतीय वचनं किम्?
तृतीया द्विवचने जानुभ्यां.
जानुभ्याम् उत्तमं, तावदेव. अनन्तरम् अश्वशालायां विभक्तिः.
अश्वशालायां तस्यां द्वितीया.
अश्वशालायां
अहम् अश्वशालायां पुस्तकं पठिष्यामि. इन्द अश्वशाला. अतः द्वितीया विभक्ति
सप्तमी
अश्वशालायां
सप्तमी विभक्तिः. अत्र भवन्तः अवगतवन्तः एव अत्र अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि. दण्डयिष्यामि लट्लकाररूपं किं?
दण्डयामि, दण्डयति.
दण्डयति तावदेव. अत्र श्लोकः अस्ति अन्ततो गत्वा. अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः, सः एव पाण्डुरः शेते देवशर्मपिता यथा. अत्र यदि वयम् अन्वयवाक्यं रचयितुमिच्छामश्चेत् कथं वक्तव्यं? यः इत्युक्ते यः कोऽपि अनागतवतीं असम्भाव्यां चिन्तां करोति. यः अनागतवतीम् असम्भाव्यां चिन्तां करोति सः देवशर्मपिता पाण्डुरः एव शेते. तथा भवति. यः कोऽपि अनागतवतीम् इत्युक्ते अत्र चिन्ता इति पदस्य विशेषणानि. चिन्तां द्वितीया विभक्ति. चिन्तां यः चिन्तां करोति, परन्तु कीदृशचिन्तां करोति, अनागतवतीं चिन्तां करोति इत्युक्ते इदानीं पर्यन्तं यत् न आगतं तस्मिन् विषये चिन्तयति. अनागतवती इत्युक्ते असम्भाव्याम् इत्युक्ते यत् न सम्भवति तस्मिन् विषये चिन्तयति. सः कीदृशः भवति, तस्य स्थितिः कीदृशी भवति इत्युक्ते देवशर्मपिता. अत्र देवशर्म कः, कस्य नाम देवशर्म?
पुत्रस्य, किन्तु
उत्तमम्. इत्युक्ते बालकस्य नाम देवशर्म. देवशर्मपिता इव भवति अत्र. पाण्डुरः शेते इत्युक्ते अत्र अहं चिन्तयामि अत्र डे ड्रीमिङ्ग्
पाण्डुरः पाण्डुरः पिष्टः तस्य उपरि पतति, अतः सः पाण्डुरः इव दृश्यते, अतः एव पाण्डुरः.
अस्तु अस्तु, पाण्डुरः
इत्युक्ते
श्वेतवर्णः. अत्र अहं चिन्तयामि पाण्डुरः इत्युक्ते यथा भवान् उक्तवान् श्वेतवर्णः अथवा विवर्णः अथवा पेल् इति वदामः. इत्युक्ते यदि वयं डे ड्रीमिङ्ग् कुर्मः चेत् तदा किमपि न भविष्यति. उत्तमं, कालातीतः भवत् क्षम्यताम्. अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा इतोपि अन्यानि विषयानि ज्ञास्यामः. धन्यवादः.
धन्यवादः
भगिनी.
सम्यक्, बहु सम्यक्.